एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। अर्थमन्त्री डाक्टर प्रकाश शरण महत नेपाली विद्यमानैः अन्तर्राष्ट्रिय विकास सहयोगीभिः सह आगामिनः आर्थिक वर्षस्य आयव्ययकस्य विषय हो व्यमृशत्। अर्थ मन्त्रालये सम्पन्ने तस्मिन् विमर्शने विश्वकोषः, ऐसैक विकास कोषः, अन्तर्राष्ट्रिय मुद्रा कोषः, अन्तर्राष्ट्रिय वित्त निगमश्चेति बहुपक्षीय विकास सहयोगी संस्थानाम्, अमेरिका देशीय अन्तर्राष्ट्रिय विकास नियोगस्य, जापान, कोरिया, स्विजरल्याण्ड, नर्वे, फिनल्याण्ड, यूरोपीय संघ, जर्मनी सहितानाम् द्विपक्षीय विकास सहयोगी संस्थानाम् च प्रमुखाः प्रतिनिधयश्च उपस्थिताः आसन्। विमर्शनस्य क्रमे अर्थमन्त्री डाक्टर महत नेपाल सर्वकारस्य आगामी दिनानाम् प्राथमिकतायाः, आगामिना आयव्ययकेन अवलम्बनीयस्य, मार्गदर्शनस्य, सिद्धान्तस्य च विषयेषु धारणाम् उपस्थापयत्। असौ नेपाल सर्वकारेण उपलब्धानि साधन श्रोतांसि उच्चतम रूपेण सदुपयुज्यन्ते इति प्रतिबद्धतां व्यक्तवान्। असौ नेपाल सर्वकारस्य ऋणस्य सततं प्रवर्धन क्रमस्य सन्दर्भे आगामी दिनेषु मूलधन वृद्धिधन प्रत्यर्पण क्षमेषु उत्पादनशील क्षेत्रेषु निवेशनं प्राथमिकतायां वर्तते इति अज्ञापयत्। अर्थमन्त्री डाक्टर महत वैदेशिक ऋणेन सह उल्लेख्य रूपेण अनुदानं प्रदातुं जलवायु परिवर्तनस्य कारको नेपालः नास्तीति हेतोः एतस्मिन् क्षेत्रे प्रदातव्यां सहायतामपि अनुदानस्यैव रूपेण परिचालयितुमपि अन्वरुणत। तदवसरे अन्तर्राष्ट्रिय विकास सहयोगिनां प्रमुखाः प्रतिनिधयश्च नेपाल सर्वकारेण आयव्ययके अवलम्बनीयानां प्राथमिकतायां कार्यक्रमेषु च सहयोग समर्थने भविष्यत इति विश्वासम् अदापयन्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली वदति भ्रष्टाचारस्य आरोपिता जना निष्पक्षानुसन्धानस्य सीमायाम् आनेतव्या। नेकपा एमाले दलस्य केन्द्रीय समिते उपवेशे ह्य अध्यक्ष ओली भ्रष्टाचारिणां दृढतया दण्डनम् अव्ययाचत। अध्यक्ष ओली यस्यां कस्यामपि व्यवस्थायां भ्रष्टाचार सम्भवति इति भाषमाण, गणतन्त्रे भ्रष्टाचारो भवति, राजतन्त्रे न इति भाष्यं निर्मातुम् अपेक्षितमिति वितर्क्य आपत्तिं प्राकटयत्। उपवेशे अध्यक्षस्य ओलिनः राजनीतिक प्रतिवेदनम्, केन्द्रीय निकायानां प्रतिवेदनम्, जनस्तर प्राप्त्यभियानस्य प्रतिवेदनम्, प्रदेशानां कार्ययोजना, केन्द्रीय सदस्यानां कार्यविभाजनम्, दले प्रविष्टानां व्यवस्थापनम् चेति दशसूत्रीय कार्यसूचीम् आधृत्य विमृश्यमानं वर्तते। उपवेशो दिनत्रयं चलतीति नेकपा एमाले दलं ज्ञापयति। नेपाली कांग्रेस दलस्य पदाधिकारिणां ह्य उपविष्टेन उपवेशेन कोशी प्रदेशे सर्वकार परिवर्तनस्य विषय विमृष्टं वर्तते। उपवेशस्य पश्चात् संचारकर्मीभिः सह ब्रुवन् दलस्य सहमहामन्त्री जीवन परियार कोशी प्रदेशस्य सर्वकारस्य विषये संघीय सर्वकारेण सह समन्वय धरणाय दले विमर्शनं प्रारब्धमिति ज्ञापितवान्। असौ नागरिकता विधेयकस्य विषयेऽपि गभीरेण विमृष्टमिति सूचयन् दलस्य भातृ संघटनानां विषये परामर्श संकलन कार्यम संचलदस्थिति अवोचत। नेपाली कांग्रेस दलेन कृत्रिम भूटान देशीय शरणार्थीनाम् विषय सर्वकाराय तथ्यम निष्पक्षतया तटस्थ रूपेण च अनुसन्धातुम् उन्मुक्त सहयोग विधीयमानो वर्तते, अनुसन्धानम् प्रभावितम् न कारितम् इति च सहमहामन्त्री परियार अगदत्। दलस्य केन्द्रीय सदस्येन पूर्व गृहमन्त्रिणा च बालकृष्ण खाँड इत्यनेन प्रहरिणे अनुसन्धानार्थम् सहयोगो विधीयमानोस्तीति चर्चयन् असौ अब्रवीत्। दलम् दोषिणाम् उन्मोचन कार्यम् न करोति, न्यायालयेन विधातव्यो निर्णय दलेन आत्मसात क्रियते च। राष्ट्रिय प्रजातन्त्र दलेन केन्द्रीय कार्यसमितेः पूर्णोपवेशः आहूतोऽस्ति। आगामिनो ज्येष्ठ मासस्य प्रथम द्वितीय तृतीय दिवसेषु काष्ठमण्डपे उपवेक्षमाणत्वेन केन्द्रीय कार्यसमितेः पूर्णोपवेशः आहूत इति दलस्य प्रवक्ता प्रचार विभाग प्रमुखश्च मोहन कुमार श्रेष्ठः अज्ञापयत्। प्रवक्तुः श्रेष्ठस्य अनुसारेण उपवेशे अध्यक्ष राजेन्द्र लिङ्गदेन सामयिक राजनैतिक परिस्थित्या भावि कार्य दिशा च सम्बद्धम् राजनीतिकम् प्रतिवेदनम् प्रस्तोष्यति। दलस्य वरिष्ठोपाध्यक्षेण रविन्द्र मिश्रेण दलस्य भावी रणनीत्या कार्यनीत्या च सम्बद्धायाः कार्ययोजनायाः प्रस्तुतेः कार्यक्रमः निर्धारितो वर्तते। एवमेव उपवेशे सचिवालय प्रमुखेण हेमराज गुरूङ इत्यनेन सचिवालयेन सम्बद्धस्य कोषाध्यक्षेण नीलकण्ठ काफ्ले इत्यनेन आर्थिकस्य च प्रतिवेदनस्य प्रस्तुतेः कार्यक्रमोस्तीति ज्ञापितम् वर्तते। उपप्रधान गृहमन्त्री नारायणकाली श्रेष्ठ कथयति नेपालिनः कृत्रिम भूटान देशीय शरणार्थिनो विदाय अमेरिका देश प्रेषणस्य वञ्चनकार्य संलग्नाः सर्वेऽपि जनाः दण्डनस्य परिधौ आनीयन्ते। ह्य नेकपा एकीकृत समाजवादी दलस्य नेतृभिः जनवर्गीय संगठनानां प्रतिनिधिभिश्च सह बीते विमर्शने गृहमन्त्री श्रेष्ठ दोषिणां कस्यामपि परिस्थितौ न त्याजनत्वेन निर्दोषानां कस्यामपि स्थितौ न दण्डनत्वेन च सर्वकारः अग्रे वर्धितो स्थिति समस्पष्टयत। उप प्रधानमन्त्री श्रेष्ठ एवंविधं वञ्चनं न केवलं सामान्य भ्रष्टाचार अपितु राज्य विरोधी सांगठनिका पराधोस्थिति उदैरयत। प्रकरणेऽस्मिन् आत्मनि केनापि नेत्रा प्रभाव न सृष्ट प्रभावे सृष्टेऽपि अनुसन्धान प्रक्रिया निष्कर्षं प्राप्यैव त्यज्यते इति दृढतां व्यक्तवान्। गृहमन्त्री श्रेष्ठ प्ररिणे निर्भयम् अनुसन्धानम् अग्रे वर्धयितुं निर्दिष्टमिति च अज्ञापयत। उपप्रधान गृहमन्त्री नारायणकाली श्रेष्ठ निगदति योगः स्वयमेव परम्परागता चिकित्सा पद्धति जीवनशैली च वर्तते। पतञ्जली योग नेपालस्य तत्वावधाने सशस्त्र प्रहरी बलस्य प्रधान कार्यालय ह्य आयोजिते योग शिविरे उप प्रधानमन्त्री श्रेष्ठ योगः वैज्ञानिकः व्यवहारिकश्चास्ति चित्तशुद्धिम् अनुशासनम् च संस्थाप्य अनुकूलोर्जसा स्वस्थ जीवनम् यापयितुम् प्रेरयति इति च प्रत्यपादयत। उप प्रधानमन्त्री श्रेष्ठ अवोचत् गृहमन्त्रालयस्य अन्तर्गतेषु गृह प्रशासने सुरक्षा निकायेषु च योगः ध्यानञ्च नियमिततया अग्रे वर्धापयेते। अर्घा खाँची जनपदे अग्निदाहेन मृतानां चतुर्णां जनानां ह्यः सामूहिकान्त्येष्टिः विहिता। भूमिका स्थान नगरपालिकायाः द्वितीयवडा क्षेत्रवर्तिनो ढाकावाङ स्थानस्य जोगी थुम्वर्तिनी वने ज्वलितस्य दावानलस्य वसतो प्रसरणमनु दग्ध्वा मृतानां तेषां चतुर्णां जनानां अन्त्येष्टिर्विहिता वर्तते। भूमिका स्थान नगरपालिकायाः द्वितीयवडा क्षेत्रवर्तिनो ढाकावाङ स्थानस्य पञ्चत्रिंशत् वर्षीयस्य पदम बेलवासे विदस्य द्वासप्तति वर्षीयस्य पीताम्बर बेलवासे विदस्य द्वापञ्चाशत् वर्षीयस्य घनश्याम बेलवासे इत्याख्यस्य षट्त्रिंशत् वर्षीयस्य माधव बेलवासे नामधेयस्य च बागमारे घाटस्थाने सामूहिक दाह संस्कारः विहितो वर्तते। सर्वकारेण स्थानान्तरणं पदस्थापनं च भूत्वापि प्रस्थानपत्रं न गृहीत्वा कार्ययोजने एव विद्यमानेभ्यः कर्मचारिभ्यो विभागीय दण्डनं विधीयते। संघीय विषय सामान्य प्रशासन मन्त्रालयेन सर्वेभ्यः मन्त्रालयेभ्यः आयोगेभ्यः सचिवालयेभ्यः कार्यालयेभ्यः प्रदेश कार्यालयेभ्यः स्थानीय स्तरेभ्यश्च परिपत्रं विधाय स्थानान्तरणं पदस्थापनं च विहितैः कार्यनियुक्तैः कार्यनियोगात् प्रत्यावृत्तैश्च कर्मचारिभिः प्रस्थानपत्रे न गृहीते सति तेभ्यः दण्डयितुं प्रत्यादिष्टं वर्तते। स्थानान्तरितैः कार्येषु नियुक्तैः कार्यनियोगात् प्रत्यावृत्तैश्च कर्मचारिभिः वर्षाणि यावत् स्वेच्छाचारितया इच्छितस्थाने निवसनस्य प्रारम्भानन्तरं मन्त्रालयेन विभागीय दण्डनं प्रारब्धमस्ति। एवमेव स्थानान्तरितैः कर्मचारिभिः सप्तानां दिनानाम् अभ्यन्तरे प्रस्थानपत्रं गृहीत्वा निर्धारितस्थाने न गतेषु सत्सु तेभ्यः पञ्चाशदुत्तरद्विसहस्रतम विक्रम वर्षीयायाः सर्वकारीय सेवा नियमावल्याः अष्टाषष्टितमस्य नियमस्य अनुसार विभागीय दण्डनम् विधास्यन्ते इति प्रत्यादिष्टम् वर्तते। वैदेशिक वृत्त्युपार्जन समितेः सचिवालयोपवेशेन नैपालक समशक्तेः यूरोप प्रवृत्ति राष्ट्रेषु विस्ताराय वैदेशिक वृत्त्युपार्जन मेलाम् आयोजयितुं पूर्वकार्यं विहितं वर्तते। समितेः सचिवालयस्य नेपाल वैदेशिक वृत्त्युपार्जन व्यवसाय संघस्य च मध्ये ह्यः सम्पन्ने विमर्शने खातीय राष्ट्रेषु केन्द्रितायाः नैपालक समशक्तेः यूरोप प्रवृत्ति राष्ट्रेषु विस्ताराय वैदेशिक वृत्त्युपार्जन मेलायाः आयोजनम् उपयुक्तम् शीर्षतीति निष्कर्षः प्राप्तो वर्तते। समितेः सचिवालयस्य कार्यकारी निर्देशक डा द्वारिका उप्रेती अन्तर्राष्ट्रिय पणस्य अध्ययन कर्तुम कारयितुम च नवीनान्तर्राष्ट्रिय समापणस्य अनुसन्धान कर्तुम कारयितुम च वैदेशिक वृत्तिपार्जनाधिनियमे वित्तायाः व्यवस्थायाः अनुसारेण अन्तर्राष्ट्रिय समापणस्य नवीनानि गन्तव्य राष्ट्राणि अन्विष्यमाणानि सन्तीति अज्ञापयत। तदवसरे समितेः सचिवालयस्य निर्देशकः सीता दुबाडी नेपाल वैदेशिक वृत्तिपार्जन व्यवसायी संघस्य अध्यक्ष राजेन्द्र भण्डारी च विचारं प्राकटयताम् इति समाचाराः।